सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र तृतीया विभक्ति इति, किन्तु तत्र गतवर्गे तत् समापितवन्तः. तत्र गतवर्गे कथाम् एकां कथामपि पठितवन्तः, तस्मिन् विषये गृहपाठः अपि आसीत्. तत् गृहपाठं कृत्वा अग्रे तुमुन् प्रत्ययान्तानि इति नूतनविषयः आयाति. अस्तु, तर्हि तत्र गतवर्गे पठितायाः कथायाः विषये गृहपाठः आसीत्, तत्र किञ्चित् विवरणं करोतु अथवा तत्र पञ्चवाक्यानि लिखन्तु इति. कः अथवा का वक्तुम् इच्छति प्रथमतया गतवर्गे यां कथां पठितवन्तः वयम्? सूर्यकुमारी भगिनी वक्तुम् इच्छति वा? अस्तु भगिनि, पठतु भगिनि.
पुटसङ्ख्या महोदय,
न न, गतवर्गे वयं पठितवन्तः खलु कथा, धनिकः अपि नाण्यम् इति परिश्रमेण अर्जितं श्रेष्ठम् इति. तत्र मेल् मध्ये लिङ्क् अस्ति, ध्वनि होम्वर्क् इति, तत्र पठितायाः कथायाः इति तत्र लिङ्क् अस्ति खलु भगिनि, प्राप्तवती वा? अद्य स्मारणपत्रम् आसीत् खलु वर्गस्य, तत्र होम्वर्क् इति यदस्ति, तत्र कोष्टकं, तत्र लिङ्क् अस्ति पठितायाः कथायाः इति. तत्र क्लिक् करोति चेत् तत् क्लिक् करोतु, तत्र कथा आगच्छति.
महोदय,
वदतु भगिनि.
कथायां केवलादौ भवति, केवलादि इत्युक्ते किमर्थ?
ओ हा, तत्र केवलागो भवति केवलादि इति, तत्र यदि कोऽपि एकाकी खादति सः पापं करोति इति. हा, तत्र किं परिवेषणं, हा, तत्र केवलम् एकाकी न खादितव्यं, तत्र यदस्ति किञ्चित् अस्ति चेदपि तत्र शेर् इति कृत्वा एव खादनीयम् इति. केवलागो भवति केवलादि इति, तत्र तत् ऋग्वेदमध्ये अस्ति भगिनि वाक्यं, वेदवाक्यं दशममण्डले. तत्र गतवर्गे अहं तत्र लिखितवान्, किन्तु अद्य मम पार्श्वे नास्ति. हा, किन्तु ऋग्वेदवाक्यम् अस्ति भगिनि. अस्तु, सूर्यकुमारी भगिनी वक्तुम् इच्छति वा? अथवा नरेश महोदय वक्तुम् इच्छति वा? अस्तु
वदामि.
अस्तु महोदय.
एकस्य आश्रमस्य साधु महाराज परिश्रमेण किञ्चित् धनम् अर्जितवान्. एकदा सः एकं धनिकम् अवदत्, धनं तस्मै ददातु यस्य आवश्यकता अस्ति. धनिकः एकं भिक्षुकम् एकं नाणकं दत्तवान्. एकं नाणकं दत्तवान्, परन्तु भिक्षुकः मदिरा पीतवान्. ज्ञात्वा धनिकः दुःखी अभवत्. यदा सः साधुमहाराजम् उक्तवान् तदा साधुमहाराजः कस्मैचित् याचकाय एकं नाणकं दत्तवान्. सः याचकः कुटुम्बस्य बुभुक्षायाः निवारणाय उपयोगं कृतवान्. धनिकः अवगतवान् परिश्रमेण सम्पादितस्य एवं परिश्रमं विना प्राप्तस्य धनं भिन्नः अस्ति.
हा बहु समीचीनमस्ति महोदय, सुन्दरम् अस्ति, धन्यवादः. तत्र द्वितीयवारं तत्र धनिकः दत्तवान् नाणकं, तत्र तद् वाक्यं किम् आसीत् द्वितीयवारं?
साधुमहाराजः कस्मैश्चित् याचकाय एकं नाणकं दत्तवान्.
हा कस्मैश्चित्, अस्तु अस्तु अस्तु, हा तत्र समीचीनं महोदय. अपि तत्र पूर्वं प्रथमवारं यदि सः दत्तवान्, भवान् उक्तवान् तत्र एकं भिक्षुकं नाणकम् इति, तत्र भिक्षुकम् इति भिक्षुकाय इति भवति, तत्र एकम् इति स्थाने किं भवति? एकः भिक्षुकः, इदानीं चतुर्थी विभक्ति आवश्यकं, तत्र भिक्षुकः भवति भिक्षुकाय, एकः किं भवति? न न, एकस्मै, कस्मै, हा एकस्मै, हा
भिक्षुकाय
इति, हा तत्र कस्मै तस्मै इति तादृशरूपम् अत्र. समीचीनं महोदय, बहु समीचीनमस्ति, धन्यवादः. अस्तु, तत्र अन्ये के वक्तुम् इच्छन्ति?
वाक्यद्वयमेव
यद् लिखितं वदतु भगिनि, गीताञ्जलि भगिनी वदतु भगिनि.
यत् धनं शरीरेण श्रमेण लब्धवती तदेव पुण्यम्, अन्यथा तत् धनं स्वस्य कृते हितकारकः नास्ति.
हा तत्र प्रथमभागः तत्र यद्धनं शरीरेण परिश्रमेण
परिश्रमेण लब्धवती
इति न न, किन्तु तद् किं सूचयति तत् पदं? धनस्य विशेषणं खलु,
धन यत् धनं प्राप्नोति इति.
न न, कः तत्र धनस्य इदानीं विषयः अस्ति वा, अथवा कः धनं प्राप्तवान् अथवा का धनं प्राप्तवती इति विषयः वा? केवलं धनस्य एव विषयः इदानीं खलु. हा यत् धनं प्राप्तम् अथवा लब्धम् अथवा लब्धं
लब्धं महोदय, तदेव अहं न,
तावदेव तत्र यत् विषय यः विषयः अस्ति तद्
ल्युडन्त् इति लब्धं
लब्धं
तदेव अहं लेखति लेखनं, किन्तु लब्धम् इति
प्राप्तम् अथवा लब्धं
विस्मरामि. धन्यवादः महोदय. यत् धनं शरीरेण परिश्रमेण लब्धं तदेव पुण्यम्,
हा तदेव पुण्यम्,
अन्यथा तद्धनं स्वस्य कृते हितकारकः नास्ति इति समीचीनं. हितकारकः
हितकारकं प्रायशः धनम् इति अस्ति, धनस्य विशेषणं भवति,
हितकारं नास्ति,
हितकारम् अथवा हितकारकं
कारकं नास्ति, अस्तु
किन्तु अत्र नपुंसकलिङ्गपदं भवेत् तत्र.
धन्यवादः
महोदय, तदेव हा समीचीनमस्ति भगिनि, सः एव तत्र मूलविषयः तत्र खलु, अन्तिमवाक्यस्य कथायां यः यत् वाक्यम् अस्ति, समीचीनं भगिनि. अस्तु, अन्य कोऽपि वक्तुम् इच्छन्ति वा? उमा मीनाक्षी भगिनी वक्तुम् इच्छति वा?
किं
कथायाः विषये, पञ्चवाक्य
कथायाः विषये किं वक्तव्यं?
पञ्चवाक्यानि
प्रथमवाक्यम्, एकः साधुमहाराजः अस्ति यः परिश्रमेण एव धनं किं प्राप्नोति
प्राप्नोति किन्तु केवलं स्वनिमित्तम् एकमेव भागं स्वीकरोति खलु सर्वं सर्वं सः यत्
प्रायः
स्वनिमित्तं
न न एवं नास्ति सः यद्धनं अर्न् करोति
अर्जति
अर्जति धनस्य एकं भागम् अन्यान् ददाति यस्य किम् आवश्यकता अस्ति एकवारम् एकः धनिकः आगच्छति सः महाराजस्य एड्वैस् पृच्छति
सूचना ददातु इति पृच्छति
तदनन्तरं धनिकः प्रथमभिक्षुकं य पश्यति तं नाणकं ददाति
तस्मै
नाणकं ददाति तदनन्तरं किं भवति हा अग्रिमदिने धनिकः जानाति नाणकस्य उपयोगं कथम् अभवत्
इति
बहु दुःखितः भवति कारणं तस्य दुरुपयोगः अभवत् तदा पुनः महाराजं दृष्टवान् अथवा
अथवा तस्य समीपं गतवान्
तदा महाराजः किं
तस्य स्वस्य नाणकम् एकं दत्तवान्
धनिकः पुनः
धनिकाय ददाति
तदनन्तरं धनिकः पुनः गच्छति एकं किं पुनः अन्य एकं याचकः भिक्षुकाय ददाति परन्तु तस्य तम् अनु वाट् इस् इट्
अनुसरति
तदा सः पश्यति कथं तस्य धनस्य उपयोगं भवति इति सम्यक्तया भवति अतः सः जानाति कथं धनं कस्मै दातव्यम्
अस्तु अस्तु भगिनि समीचीनं समीचीनम् अस्तु अस्तु अन्य कोऽपि धन्यवादः भगिनि अस्तु पूर्णेन्दुमहोदय वक्तुम् इच्छति वा
न महोदय
अस्तु रघुपतिमहोदय
क्षम्यतां महोदय
अस्तु 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 चिन्ता मास्तु अस्तु सूर्यकुमारी भगिनि इदानीं वक्तुम् इच्छति वा अस्तु 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 चिन्ता मास्तु शीतल भगिनी किमपि वक्तुम् इच्छति वा कथायाः विषये अस्तु 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 तर्हि अस्तु अतः इदानीम् अग्रे गच्छामः तर्हि समीचीनम् अतः इदानीं गीतासोपाने तत्र पेज् 177 मध्ये नूतनविषयः तुमुन् प्रत्ययान्तानि इति यदस्ति तद् अद्य पठामः तत्र वृद्धः अस्ति लता अस्ति इति तत्र सम्भाषणे जनद्वयम् आवश्यकम् अस्ति के पठितुम् इच्छन्ति तत्र अस्तु भगिनि सूर्यकुमारी भगिनी अपि शीतल भगिनी अस्तु शीतल भगिनी लता भवती लता अस्तु अस्तु पठन्तु
शोचितम् अर्हसि उच्चैः पठत जानीत च तुमुन् प्रत्ययान्तानि वृद्धः आगच्छतु भगिनी
धन्यवादः महोदय नूतनं गीतापुस्तकं क्रेतुम् इच्छामि कतिभिः रूप्यकैः पुस्तकं लब्धुं शक्नोमि
वृद्धः कियन् मूल्यस्य पुस्तकं स्वीकर्तुम् इच्छसि?
शतपर्यन्तं दातुं शक्नोमि महोदय.
तत्र बहुविधानि पुस्तकानि द्रष्टुं शक्नोषि.
तेष्वेव वर्णमयम् एकं चेतुम् इच्छामि.
जीवनं यशस्वी कर्तुं गीताध्ययनं कुरु.
बहु समीचीनमस्ति, धन्यवादः. तत्र गतवर्गे अपि पठितवन्तः एतत्, किन्तु पुनः एकवारं पश्यामः तत्र किम् अस्ति. नूतनं गीतापुस्तकं क्रेतुम् इच्छामि. तत्र नूतनं गीतापुस्तकं तयोः मध्ये कः सम्बन्धः?
नूतनं गीतापुस्तकं विशेषभावः.
अपि तत्र विभक्ति का तत्र?
द्वितीया
कर्मपदम् अस्ति इति. अस्तु, कतिभिः इति तत्र विभक्ति का?
तृतीया.
किं कतिभिः रूप्यकैः? तत्र कतिभिः रूप्यकैः तयोः मध्ये कः सम्बन्धः?
तृतीयविभक्तिः
विशेषणविशेष.
विशेष्य. समीचीनं. पुस्तकं लब्धुं शक्नोमि. कतिभिः रूप्यकैः पुस्तकं लब्धुम् अथवा प्राप्तुं शक्नोमि? कियन् मूल्यस्य पुस्तकं स्वीकर्तुम् इच्छसि? कीदृशपुस्तकं, तस्य मूल्यं कीदृशं भवेत्? भवती ताय कीदृशं पुस्तकं स्वीकर्तुम् इच्छसि? अतः तत्र भगिनी लता भगिनी तत्र वदति शतपर्यन्तम् इत्युक्ते शतरूप्यकाणि तावत् अथवा तस्य न्यूनं, किन्तु तस्य अधिकं यदि अस्ति चेत् अहं न शक्नोमि, किन्तु शतपर्यन्तं दातुं शक्नोमि महोदय इति सः वदति.
तत्र मेक्सिमम् 100 रुपीस्.
सत्यं सत्यं, मेक्सिमम् इति.
महोदय
शतपर्यन्तं
मूल्यस्य
कियत् मूल्यस्य इति. तत्र सन्धि भवति, तत्र कियत् योगः मूल्यः मकारः तत्र अनुनासिक अस्ति इति कृत्वा तत्र अनुनासिकसन्धि इति कियन् मूल्यस्य इति. किन्तु तत्र पदद्वयं तत्र समस्तपदमस्ति, किन्तु तत्र पदद्वयं कुर्मश्चेत् कियत् अपि मूल्यस्य इति. नकार आगच्छति
महोदय. कियत् कियत् इति इत्युक्ते कति
न न न तत्र तत्र भगिनि तत्र यदि गणनं कुर्मः, गणनम् इति जानाति खलु गणनं, तत्र द्विविधा अस्ति खलु गणनकार्ये. एकम् अस्ति तत्र एकं द्वे त्रीणि इति, अन्यत् तत्र कति पुस्तकानि इति वयं प्रष्टुं शक्नुमः, किन्तु जलं कति जलम् अस्ति इति प्रष्टुं शक्नुमः वा?
अस्तु, यदि
कियत् कियत् एव अस्ति. तत्र तत्र एकम् अस्ति कति इति, हौ मेनि इति, अन्यत् कियत् अस्ति, हौ मच् इति. यत्र तत्र एकं द्वे त्रीणि यत्र न भवति तत्र केवलं कियत् इति एव.
किन्तु अहं मन्ये इति मन्ये कियत् यद् वयं योजयामः, यदि वयं किमपि संख्या न
तत्र सत्यं सत्यं सत्यं.
अत्र तु तत् सत्यं नास्ति महोदय, मूल्य इति.
किन्तु तत्र केवलं एकः अथवा द्वे अथवा सार्ध द्वे तादृशं सर्वं भवति खलु.
बहुमूल्यं न्यूनमूल्यं परिमाणमेव, यत्र परिमाण भवति तत्र कियत् इति. तत्र क्वाण्टिटि
सैज् इति सैज् इति
तत्र
परिमाणम् आम् नपुंसकलिङ्गपदं हा तत्र हा तत्र यदि कति रूप्यकाणि आवश्यकानि इति तादृशप्रश्नः भवति भगिनि किन्तु यदि तत्र अर्धरूप्यकाणि इति सर्वम् अस्ति चेत् तत्र हा अतः तत्र कति इति प्रश्ने तत्र उत्तरम् एकं द्वे त्रीणि इति तादृशसङ्ख्याः एव भवन्ति किन्तु तत्र सार्ध अथवा त्रिपाद इति तादृश सर्वं न भवति भगिनि इति मन्ये समीचीनः प्रश्नः एव किन्तु अत्र कियत् इति तत्र कियत् प्रायशः एतदपि चिन्तयितुं शक्नुमः कियत् मध्ये अन्तर्भूतः अस्ति कति अथवा कियत् द्वयमपि इति खलु तत्र यदि भवती तत्र पुस्तकालयं गच्छति तत्र प्रश्नः भवती किं वदति हौ मच् शुड् ऐ पे अथवा हौ मेनि शुड् ऐ पे किं वदति भवती
किन्तु आङ्ग्लभाषा
सत्यं न न न न सत्यं 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 किन्तु हा तत्र यद्यपि तत्र सङ्ख्या एव अतः कियत् इति मध्ये कति अपि कियत् द्वयमपि अन्तर्भूतः इति चिन्तयितुं शक्नुमः
समीचीनं
महोदय अस्तु शतपर्यन्तं दातुं शक्नोमि तत्र बहुविधानि पुस्तकानि द्रष्टुं शक्नोषि हा तत्र पुस्तकालये अस्ति अनेकानि पुस्तकानि बहुविधानि एकविधं पुस्तकम् इति न बहुविधानि पुस्तकानि तत्र सन्ति द्रष्टुं शक्नोषि तेष्वेव इति तत्र तेषु एव वर्णमयम् एकं चेतुम् इच्छामि वर्णमयं तत्र बहुवर्णानि सन्ति इति केवलं रक्तवर्णं न नीलवर्णं किमपि तत्र कलर्फुल् इति वर्णमयम् एकं पुस्तकं चेतुम् इच्छामि जीवनं यशस्वीकर्तुं जीवने यशस् तद् कर्तुं गीता अध्ययनं कुरु इति गीताध्ययनं कुरु इति वृद्धः वदति अतः तत्र तुमुन् रूपं तुम् इत्युक्ते तत्र किमपि कर्तुं तत्र कार्यः इदानीं न अभवत् किन्तु किमपि कर्तुं तत्र अहं हा अहं तत्र मन्दिरं गच्छामि तत्र मन्दिरं गत्वा पूजां करोमि अतः पूजां कर्तुं मन्दिरं गच्छामि अथवा तत्र क्रीडाङ्गणं गच्छामि क्रीडितुं क्रीडाङ्गणं गच्छामि तत्र गत्वा किमपि करोमि किमर्थं गच्छामि अथवा किमर्थं गच्छसि इति प्रश्नस्य उत्तरम् एतत् कर्तुम् अथवा एतद् इति कर्तुम् इति हा तादृशरूपं तुमुन् रूपम् इति किमपि भवति तदनन्तरम् एतत् कार्यं भवति तत्र एतत् कार्यद्वये वयं दृष्टवन्तः खलु प्रथमकार्यस्य एकः एव कर्ता अस्ति सः कार्यद्वयं करोति तत्र वयं किं कुर्मः तत्र गत्वा क्रीडामि क्रीडाङ्गणं गत्वा क्रीडामि तद्रूपं पूर्वं दृष्टवन्तः इदानीं नूतनरूपं तस्य विषये एव कर्तुं शक्नुमः तत्र क्रीडाङ्गणं क्रीडितुं गच्छामि इति क्रीडाङ्गणं गत्वा क्रीडामि अथवा तादृश तत्र तस्मिन् सन्दर्भे क्रीडाङ्गणं क्रीडितुं गच्छामि इति तत्र अस्मिन् एव विषये रूपद्वयं भवति अस्तु तत्र एकवारं तत्र तुमुन् रूपं पश्यामः किं क्रियाभावः हा तत्र क्रियां सूचयति एतद्रूपं हा सत्यं क्रियापदात् एतद्रूपं एतस्य रूपस्य निर्माणं भवति अस्तु तत्र अवयमपि सत्यम् अवयम् अव्ययम् अस्ति एतत् सत्यं भगिनि हा अव्ययम् अस्ति एतत् अस्तु अत्र पूर्णेन्दुमहोदय एकवारं तत्र पठति वा तत्र तुमुन् प्रत्ययान्तरूपाणि
अतः पोषकमध्ये यत् अस्ति तद्
वा तद् तदेव महोदय
तुमन् प्रत्ययान्तरूपाणि लिखति लेखितुम् आदति आदितुम् क्रीडति क्रीडितुम् चलति चलितुम् धावति धावितुम् जानाति ज्ञातुम् हसति हसितुम् ददाति दातुम् तिष्ठति स्थातुम् पश्यति द्रष्टुम् गायति गातुम् शृणोति श्रोतुम् नयति नेतुम् आनयति आनेतुम्
हा एतावत्पर्यन्तं समीचीनमस्ति महोदय धन्यवादः अत्र पश्यामः किं किम् अत्र कीदृशरूपस्य विषये किं किं वक्तुं शक्नुमः तत्र लिखति अपि खादति तयोः मध्ये कः भेदः तत्र अथवा एतत् स्वीकुर्मः तत्र हा गायति गायति अपि नास्ति किं न किन्तु एतत् स्वीकुर्मः गच्छति गन्तुम् इति अस्ति अपि खादति खादितुम् इति अस्ति तत्र गम् धातुः कीदृशधातुः अस्ति तत् सेट् अस्ति वा अनिट् अस्ति वा गच्छति गत्वा इति रूपं दृष्टवन्तः अत्र गन्तुम् इति अस्ति तत्र इकारः आगच्छति वा अथवा न आगच्छति गत्वा गन्तुं तत्र इकारः अस्ति वा नास्ति नास्ति तत् अनिट् अस्ति अनिट् अस्ति अपि खादति तत्र खादित्वा इति रूपं दृष्टवन्तः खलु पूर्वम् अत्र किमस्ति खादितुम् इति अस्ति यत्र यत्र इकारः त्वान्तरूपे इकारः आगच्छति तत्र तत्र तुमुन् रूपे अपि ईकारः आगच्छति अतः धातु यदि सेट् अस्ति चेत् ईकारः आगच्छति अनिट् अस्ति चेत् इकारः न आगच्छति तत्र चलति चलित्वा अत्र अस्ति चलितुम् धावति धावित्वा इति दृष्टवन्तः इत्र अत्र अस्ति धावितुम् इति अतः तत्र ईकारः सेट् अस्ति अथवा अनिट् अस्ति इति तद्दृष्ट्वा वयं वक्तुं शक्नुमः ईकारः आगच्छति न वा इति अस्ति तद् सः एकः अंशः अन्यः अंशः तत्र त्वान्तरूपे तत्र आगच्छति गत्वा इति आसीत् आगच्छति किम् अस्ति आगत्य इति अस्ति किन्तु तत्र भेदः कः उपसर्ग अस्ति चेत् त्वान्तरूपं मास्तु ल्यवन्तरूपम् इति तत्र आसीत् अत्र विषयः कः तत्र उपसर्ग अस्ति चेत् अन्यत् रूपम् अस्ति वा तुमुन् मध्ये
न
तत्र तत्र पश्यतु गच्छति गन्तुम् आगच्छति आगन्तुम् उन्नयति उन्नेतुं नयति नेतुम् अतः तत्र यदि उपसर्ग अस्ति उपसर्ग नास्ति कोऽपि भेदः नास्ति तुमुन् रूपम् एव सर्वदा भवति अतः धातु उपसर्गरहितः वा सहितः वा इति द्रष्टव्यम् एव नास्ति अत्र सर्वदा तुमुन् रूपम् एव भवति एकः एव एकमेव रूपम् अस्ति प्रायशः अंशद्वयमेव इदानीं वक्तव्यमस्ति इति मन्ये तत्र अस्तु अतः तत्र अन्यः अंशः अपि वक्तुं शक्नुमः तत्र त्वान्तरूपं तद् कस्य रूपस्य समीपम् अस्ति चेत् तत्र गच्छति गत्वा इति त्वान्तरूपं तत्र गतवान् इति तद् बहु तत्र तावत्तु त्वान्तरूपं सर्वं समान् तत्र बहु सामीप्यम् अस्ति तयोः मध्ये अपि तत्र तुमुन् रूपं तत्र भविष्यत्कालस्य क्रियापदस्य रूपस्य समीपं भवति एतत्. तत्र पश्यतु, तत्र वदति इति तत्र वदितुम् अपि तस्य भविष्यत्कालरूपं किमस्ति वदति इति
वदिष्यति
तत्र वदितुम् इति अस्ति. हा तत्र अतः तत्र नृत्यति नर्तिष्यति इति. हा अतः तत्र एतत् तुमुन् रूपं भविष्यत्कालरूपस्य समीपम् अस्ति इति मनसि स्थापयतु. अभ्यासं कृत्वा कृत्वा पश्यामः पुनः. अस्तु तर्हि अग्रे गच्छामः अग्रिमपुटे. तत्र हा रघुपतिमहोदय अग्रे अग्रिमे पुटे अभ्यासः यः अस्ति तं करोति वा, आरम्भं करोति वा.
लघुप्रश्न महोदय, लिखति लेखितवान् वा लिखितवान् वा?
लिखितवान्.
लेखितुं किन्तु लिखितवान्. ले अपि च लि द्वयो.
हा लिखितवान् लिखित्वा. हा लिखित्वा इति तत्र अत्र लेखितुम् अपि भविष्यत्कालरूपमस्ति लेखिष्यति इति.
केवलं त्वान्तरूपं.
हा त्वान्तरूपं त्वान्तरूपम् अपि
यत्र ककार अस्ति ककार अस्ति तस्य तत्र सामान्यतः गुण न भवति. लिक् इति अस्ति त्वा इति अस्ति खलु त्वा तस्य अस्ति अत्र ककार अस्ति ककारस्य किं भवति अपगच्छति. यत्र ककार अस्ति तत् सूचयति गुणः न भवति इति उपधायां गुणः न भवति सामान्य नियम.
किन्तु अत्र ककार नास्ति
सामान्यनियम अस्ति.
किन्तु तत्र
वयं पठितवन्तः गीता भगिनी जानाति नीतिका इति सूत्रमस्ति खलु गुणनिषेधः भवति.
आम् ओ अस्तु अस्तु धन्यवादः महोदय.
अस्तु हा तत्र तत्र त्वान्तरूपं भूतकालरूपसमीपमस्ति अपि तुमुन् रूपं भविष्यत्कालरूपस्य समीपम् अस्ति इति. अस्तु अग्रे रघुपतिमहोदय. न न न अग्रे गच्छामः अग्रे गच्छामः महोदय. तत् अभ्यासः कुर्मः.
अभ्यासः तुमनन्तरूपस्य प्रयोगेन वाक्यद्वयम् एकं वाक्यं कृत्वा लिखत. धावकः धावति क्रीडाङ्गणं गच्छति. धावकः धावितुं क्रीडाङ्गणं गच्छति. बालकः पठिष्यति पुस्तकं स्वीकरोति.
स्वीकरिष्यति
बालकः पठितुं पुस्तकं स्वीकरिष्यति. अग्रिमं शिशुः चलितवान् प्रयत्नं कृतवान्. शिशुः चलितुं प्रयत्नं कृतवान्.
हा समीचीनं महोदय. हा समीचीनं. हा अस्तु अग्रे गीताञ्जलि भगिनी अग्रे.
मातरः अर्चिष्यन्ति मन्दिरं गमिष्यन्ति. मातरः अर्चयितुं मन्दिरं गमिष्यन्ति.
तत्र प्रायश अर्चितुम् इति प्रायश अस्ति.
ओ अर्चितुम्
इति
अर्चितुं क्षम्यतां महोदय अर्चितुम् अर्चयितुं न अर्चितुं कथं जानीमः महोदय.
तत्र अर्चिष्यति एव तत्र रूपं भविष्यत्कालरूपमेव अस्ति खलु भगिनि.
शकार आगच्छति तदेव अर्चितुं क्षम्यतां महोदय.
वदिष्यति तत्र वदति वदितुं वदिष्यति तत्र श्यति इति त्यक्त्वा तत्र साधारण अर्चिष्यति अर्चितुम् इति मम
समीचीनं. अग्रिमं महोदय
अग्रिमं करोतु भगिनि.
भ्राता जलम् अपिबत् पाकशालाम् अगच्छत् भ्राता जलं पातुं पातुं पाकशालाम् अगच्छत्
समीचीनं भगिनी हा समीचीनं पिबति इति अस्ति अतः पातुम् इति समीचीनं भगिनी अस्तु अग्रे नरेश महोदय
ते वैज्ञानिकाः भविष्यन्ति सम्यक् पठिष्यन्ति ते वैज्ञानिकाः भवितुं सम्यक् पठिष्यन्ति
हा समीचीनं महोदय हा समीचीनम् अग्रे
सैनिकाः युध्यन्ते रणाङ्गनं गच्छन्ति सैनिकाः
तत्र योद्धुम् इति योद्धुं योद्धुम् इति रूपं तत्र कोष्टके अस्ति कोष्टके अस्ति महोदय कोष्टके
सैनिकाः योद्धुं रणाङ्गनं गच्छन्ति
समीचीनं महोदय समीचीनम् अग्रे तत्र सूर्यकुमारी भगिनी
सभाम् अगच्छत् वक्ता वदितुं सभां
हा वदि हा तत्र वदितुं वदितुं हा वदितुं समीचीनं भगिनि हा योद्धा वदितुं रणाङ्गनं
अहं मन्ये
वद्
धातु अस्ति चेत् वक्तुं अत्र वद् धातुः अस्ति अतः वदितुं हा वच् धातुः अस्ति चेत् तत्र वक्तुम् इति
कथं ब्रोतुं ब्रीतुं
ब्रू अपि वच् धातु एकमेव
ब्रवीतुम् इति अपि अस्ति न
अब्रवीत्
अब्रवीत् इति अस्ति
ब्रवीतुं मम क्रियेशन्
भवती पेटेण्ट् स्वीकर्तुं
शक्नोति
अस्तु समीचीनम् अग्रे शीतल भगिनि ओ क्षम्यतां सूर्यकुमारी भगिनी तत्र अग्रिममपि करोतु क्षम्यतां भगिनी सूर्यकुमारी भगिनी हा युवत्यः
मञ्चे तिष्ठन्ति युवत्यः गातुं मञ्चे तिष्ठन्ति
हा समीचीनं भगिनी हा इदानीं शीतल भगिनी
अभियन्ता भवनं निर्माति मानचित्रं लिखति अभियन्ता भवनं निर्मितुं मानचित्रं
तत्र निर्मातुम् इति प्रायशः अस्ति ओ ओ निर्मितुम् एव प्रायशः क्षम्यतां भगिनि हा निर्मितुं निर्मित्वा
निर्मातुम्
इति इति अस्ति महोदय सत्यं वा
निर्मातुमेव समीचीनम् इति
मम भवतः मा तत्र पठति इति पट् इति निर्माति मा निर् अपि निर् इति उपसर्गः निर्माति निर्मातुम् इति मन्ये भगिनि एकनिमिष पश्यामः तत्र निर्मातुम् इति हा तत्र अत्र पश्यामि भगिनि एकनिमिष
निर्मितं नास्ति महोदय
निर्मातुमेव 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 अस्तु
उत्तरम् उत्तरं दत्तवान् निर्मातुं
महोदय अभियन्त इति आकारान्त पुंलिङ्गशब्दः अस्ति
न तत्र अभियन्ता अभियन्तृ ऋकारान्तपदं प्रायशः
न जानामि महोदय
ऋकार ऋकार
ओ
पिता पितावत्
हा तादृश तादृश हा अभियन्तृ इति
पितावत् धन्यवादः
तत्र निर्माति इति तत्र मा धातुः तत्र
कस्मिन्
निर्मातुम् इति
अस्तु उत्तरं ददाति दत्तम्
अस्तु अस्तु किन्तु तत्र माने तत्र मा धातु मा मा इति धातु अस्ति किन्तु तत्र तत्र किमस्ति माति इति अस्ति वा
निर्मा धातु महोदय
हा निर्माति अस्तु मा धातुः अस्तु एकनिमिष अस्तु एकनिमिषः पश्यामि तत्र निर्मातुमेव अस्तु किन्तु एकवारं तत्र पश्यामः तत्र मानीयः मन् हा निर्मातुं तुमुन् रूपं मातुम् इति अस्ति अस्तु निर्मित्वा निर्मित्वा इति अस्ति निर्मित्वा इति अस्ति तद् त्वान्तरूपं तत्र अनिट् अस्ति किन्तु निर्मितुम् इति अस्ति अस्तु तत्र अन्यत् किमपि कार्यमस्ति तत्र निर्मित्वा इति अस्ति किन्तु निर्मातुं हा समीचीनं भगिनि अग्रे
रामस्य सेना लङ्कां गच्छति सेतुं निर्माति रामस्य सेना लङ्कां गन्तुं सेतुं निर्माति
हा सेतुं निर्माति अस्तु अन्तिममपि करोतु भगिनि तत्र
गन्तुं महोदय
गन्तुं हा गन्तुं गन्तुं कोष्टके अपि अस्ति भगिनि हा गच्छति गन्तुं
भगिन्यः चाकलेहं खादन्ति आपणं गच्छति
गच्छन्ति
भगिन्यः चाकलेहं खादित्वा आपणं
न खादित्वा न खादित्वा न खादित्वा यदि खादित्वा ते तु न गच्छन्ति
क्षम्यतां क्षम्यतां
खादितुम्
आपणं गच्छन्ति
आपणं गच्छन्ति समीचीनं तत्र यथा पूर्वं त्वान्तरूपमपि तत्र अव्ययम् आसीत् तत्र कर्तृपदस्य वचनं वा पुरुषः वा न पश्यति अत्रापि भगिन्यः चाकलेहं खादितुम् आपणं गच्छन्ति अथवा भगिनी चाकलेहं खादितुम् आपणं गच्छति तत्र खादितुं रूपमेव भवति तत्र तुमुन् रूपं त्वान्तरूपसमानं तादृश अव्ययम् अस्ति इति कृत्वा तत्र क्रियासूचकम् अव्ययं भवति किन्तु तत्र रूपभेदः न भवति अतः अस्तु अपि तत्र किं कर्तुम् इति प्रश्नः भवति तत्र किमर्थं गच्छति अथवा किमर्थम् आपणं गच्छति इति प्रश्ने सति भगिन्यः चाकलेहं खादितुम् आपणं गच्छन्ति किमर्थम् एतत् कर्तुम् इति उत्तरं भवितुम् अर्हति अस्तु अतः तुमुन् रूपं तस्य प्रश्नस्य अपि उत्तरं भवति अस्तु हा इदानीं तत्र किं सर्वे तत्र अङ्गीकुर्वन्ति वा तद् यद् वयं चर्चितवन्तः पूर्वं तत्र तत्र अस्ति
एक्स्पेरिमेण्ट्
हा तत् अस्ति
ह्यूमिङ्ग् एक्स्पेरिमेण्ट्
प्रयोगः इति हा प्रयोगः अथवा प्रतीत्य अथवा परीक्षण
क्रिया परीक्षणम्
इति सर्व तद् कुर्मः अस्तु इदानीम् अतः तत्र शीतल भगिनी तत्र लिङ्क् प्राप्तवती वा चाट् मध्ये अस्ति तत्र जूम् इति अपि तत्र पास्वर्ड् अपि अस्ति.
मीटिङ्ग् ऐ डी इस् नाट् वेलिड्.
अहं तत्र आन् न कृतवान् इति मन्ये. एक एकनिमिषः, नो चेत् पुनः एकवारम् अहं प्रेषयामि. अस्तु, एकनिमिषः तत्र ज़ूम् आरम्भं कृत्वा.
इयं सम्यक् अस्ति महोदय.
किं भगिनि?
ध्वनिः सम्यक् अस्ति.
हा अस्तु, एकनिमिषः तत्र पुनः प्रायः तत् स्थापनीयं वा इति न जानामि. एकनिमिषः पश्यामि. ओ अस्तु, इदानीं तत्र मम एव मीटिङ्ग् ऐ डी. अस्तु, एतत् प्रायशः समीचीनम् अस्ति इति मन्ये. अस्तु अस्तु, इदानीं तत्र पुनः प्रेषयामि. अस्तु, सर्वे एकनिमिषः तत्र एव तिष्ठन्तु. अत्र इदानीं तत्र
नूतनम् ऐ डी भवति वा?
इदानीं किम् अस्ति तत्र? हा तत्र अहं चिन्त्यं महोदय, तत्र यदि तत्र मीटिङ्ग् ऐ डी, हा तत्र प्रायशः
तदेव
सः एव वा? अस्तु, न महोदय, इदानीं तत्र
1744 करोमि, इदानीं जायिन् करोमि.
408107765 तत्र शीतल भगिनी अस्ति, उमामीनक्षी भगिनी अस्ति.
महोदय, मीटिङ्ग् ऐ डी पुनः वदतु.
एकनिमिषं भगिनी, अहं पुनः
तत्र अस्ति, तत्र अस्ति, प्रेषितवान्
चाट् मध्ये प्रेषयामि भगिनि. एतदेव अस्ति, मीटिङ्ग् ऐ डी 408 इति आरभ्य. नरेश् महोदय अस्ति इदानीं.
डु नाट् कनेक्ट् टु आडियो, आडियो करेक्ट् कर्तुं शक्यते अस्माभिः.
वीडियो मास्तु, केवलं आडियो.
टर्न् आफ् वीडियो इति क्लिक् करणीयं वा तत्र?
करणीयं महोदय, नो चेत् नो चेत् तत्र वीडियो आगच्छति. गीताञ्जलि भगिनी प्रायशत्
अहं प्रयत्न करोमि महोदय.
अस्तु, नरेश् महोदय तत्र अस्ति, रघुपति महोदय आगच्छति इति मन्ये.
इदानीं पुनः पुनः
पृच्छति वा? न भगिनी, भवती अस्ति अत्र. अत्र पास्वर्ड् किमपि नास्ति इति मन्ये भगिनी, भवती अस्ति अत्र?
न महोदय, ज़ूम् डिटेक्टेड् अ प्रोब्लम्, नीड्स् एण्टर् योर् पास्वर्ड्
इति अस्ति वा? भवती केवलं भवत्याः एव एषः एषा समस्या इति मन्ये भगिनि.
क्षम्यताम्, अहं पुनः मै फोन् मध्ये
इदानीम् इदानीम् एफ् सि सि लाग् औट् करोमि.
ओ इति
पास्वर्ड् महोदय.
अस्तु अस्तु, अहम्
अस्तु
केवलं केवलं मीटिङ्ग् ऐ डि.
हा अस्तु, इदानीम् एण्ड् करोमि अत्र एफ् सि सि मध्ये. ओ एकनिमिषः, तत्र रेकार्डिङ्ग् करणीयमासीत्, एकनिमिषः.